सर्वेभ्यो नमः। गतवर्गे वयं कदा इति विषयस्य अभ्यासं कृतवन्तः। तत्र कृष्णः कदा उत्तिष्ठति इति कथा अपि पठितवन्तः, सम्भाषणं पठितवन्तः। अपि तत्र दीपावली इति कदा भवति इति तादृश प्रश्नानाम् उत्तराणि अपि उत्तराणां प्रश्नानपि कृतवन्तः कदा भवति इति गतवर्गे। तत्र अस्मिन् विषये किन् अभ्यासः अपि आसीत् गृहपाठरूपेण। तत्र केवलम् एकम् एव अभ्यासगृहपाठः अस्ति इति मन्ये। तत्र कदा .pdf इति एकं करपत्रं मया प्रेषितम् अस्ति वा? सर्वे प्राप्तवन्तः वा? अस्तु, हा, तद् कृत्वा अग्रे गच्छामः अद्य। अस्तु, अत्र उषा भगिनी पठति वा तत्र?
उदाहरणानुगुणं समयम् अक्षरैः विलिख्य प्रश्नान् उत्तरन्तु। भवान् कदा कार्यालयं गच्छति? अहं सार्धदशवादने कार्यालयं गच्छामि। भवती कदा विद्यालयं गच्छति? भवती अहं सार्धसप्तवादने विद्यालयं गच्छामि।
समीचीनं भगिनि, समीचीनम्। अस्तु, अग्रे शोभा भगिनी।
कार्यालयः कदा पिहितः भवति? कार्यालयः षड्वादने पिहितः भवति।
कार्यालयः षड्वादने पिहितः भवति, समीचीनं भगिनी। वेणुगोपाल् महोदय, अग्रिमम्। आम्
महोदय, मन्दिरं कदा पिहितं भवति? मन्दिरं दशवादने पिहितं भवति।
तत्र कार्यालयः पिहितः इति आसीत्, मन्दिरं पिहितम् इति अस्ति, किमर्थं वदति?
तत्र मन्दिरं द्वितीयविभक्ति अस्ति,
न तत्र मन्दिरं भवति एव। तत्र मन्दिरं नपुंसकलिङ्गपदमस्ति, कार्यालयः पुल्लिङ्गपदमस्ति।
अस्तु
तत्र पिहितम् इति विशेषणं भवति मन्दिरं पदस्य, पिहितः कार्यालयपदस्य विशेषणं भवति। तावदेव। क्लोस्ड्।
ओ
धन्यवादः।
अस्तु, रघुपति महोदय, अग्रिमम्।
सांस्कृतिककार्यक्रमः कदा अस्ति? सांस्कृतिककार्यक्रमः सपादपञ्चवादने अस्ति।
समीचीनं महोदय। अग्रे मधुसूदन महोदय, अस्ति वा? अस्तु अस्तु, गीताञ्जलि भगिनि। मधुसूदन महोदय, अस्ति वा? किञ्चित् उच्चैः वदतु महोदय।
क्षम्यतां
महोदय, इदानीं समीचीनमस्ति।
क्षम्यतां महोदय, फोटोसङ्ख्या
एतत् करपत्रम् ईमेल् द्वारा प्रेषितम्, अभ्यासपत्रं कदा .pdf इति, एकं फैल् अस्ति।
कदा
अस्मिन् स्मरणपत्रम् अस्ति खलु, अहं ह्यः प्रेषितवान्, अटाच्मेण्ट् इति अस्ति तत्र। तत्र इदानीं किं षष्ठ
अध्यापिका कदा आगमिष्यति? अध्यापिका पादौ न द्वादश
वादने
वादने आगमिष्यति.
समीचीनं महोदय. हा गीताञ्जलि भगिनी अग्रे.
द्विवादने अस्ति महोदय 145.
हा द्वि सः किं पादोन
चिन्तयामि अहं पादोन द्विवादने उक्तवान् इति.
द्वादश
द्वादश उक्तवान् वा? अस्तु अस्तु द्विवादने द्विवादने अस्तु अस्तु सत्यं सत्यं. हा 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 द्वादश अहमपि द्वि इति एव श्रुतवान् किन्तु सत्यं सत्यं. हा सः अपि हा द्वि इति वक्तुम् इष्टवान् इति मन्ये. अस्तु तद् भवति. अस्तु अग्रे गीताञ्जलि भगिनी.
बालिका कदा शयनं करोति? बालिका दशाधिकनववादने शयनं करोति.
हा समीचीनम्. अस्तु अग्रे उषा भगिनी.
आपणस्य उद्घाटनं कदा भवति? आपणस्य उद्घाटनं 50-18 भवति.
हा अस्तु 50-55. अस्तु अस्तु अस्तु. हा 8 अथवा
50 न महोदय
50 50-18 नववादने उपयुज्य अपि वदतु.
नववादने महोदय.
हा नववादने अस्ति चेत् तस्य पूर्वं किं भवति?
नववादने
न न न दश ऊन
दश ऊन
नववादने
नववादने भवति.
हा इति समीचीनं भगिनि. हा अस्तु अग्रे शोभा भगिनि.
वैद्यस्य आगमनकालः कः? वैद्यस्य आगमनकालः 40 11 अस्ति. वादनं
कः
कः वादनम्
अस्ति अथवा आगमनकाले कदा यदि आगमन आगच्छति अस्ति चेत् वैद्यः तत्र उत्तरं तस्मिन्नेव रूपं भवितुम् अर्हति अथवा अन्यत् रूपम् अपि भवितुम् अर्हति खलु. वैद्यः
वैद्यः 40-11
आगमिष्यति. नो चेत् आगमनकालः एतत् अस्ति
भवति अपि
इति
आगच्छति
अपि. समीचीनम्. अस्तु अग्रे रघुपति महोदय.
महोदय अत्र सूर्योदयः कदा भवति? अत्र सूर्योदयः 5:30 भवति.
5:30 भवति. अस्तु हा इदानीं कदा इति सर्वे जानन्ति तस्य प्रयोगः कथं कथं भवति.
महोदय एकः प्रश्नः. अध्यापिका 145 किम् अस्ति महोदय?
पादोन द्विवादने
महोदय संस्कृतभारती एकः पुस्तकमस्ति मम पार्श्वे. तत्र 6:45 अस्तु महोदय. अस्तु
5:45 किं दत्तमस्ति?
भ्रमः जातः.
पादोन 6:00 इति प्रायः अस्ति.
अस्तु
तत्र पादोन इत्युक्ते 1:45 इति अर्थे.
अस्तु मम भ्रमः.
अस्तु अस्तु महोदय.
8:50 महोदय 10:09.
हा हा सत्यं तदपि वक्तुं शक्नुमः. सत्यं
सन्धि
इदानीं मास्तु भगिनि. यद् यद् जानीमः यद् शक्यते तस्य प्रयोगः करोतु. यद् न जानीमः तत्तु आगच्छति किन्तु यद् अस्ति तस्य प्रयोगं करोतु.
अत्र 10:09 समीचीनम्.
दश ऊन नववादने उद्घाटनं भवति इति तत् समीचीनमस्ति. अग्रे गत्वा सन्धि कुर्मः निश्चयेन किन्तु इदानीं न शक्नुमः चेत् चिन्ता मास्तु खलु. सत्यं यत् भवती उक्तवती सत्यमेव. अग्रे करणीयम् इदानीं न चेत् नो चेत् अपि चिन्ता मास्तु.
महोदय, अभ्यासपुस्तके पञ्च न्यून दश न्यून इति एव दत्तं.
तदपि न्यून अपि तदपि वक्तुं न्यून इति न्यून अपि वक्तुं शक्नुमः. तत्र न्यून इति सम्यक्तया सुलभतया अवगन्तुं शक्नुमः न्यून न्यूनम् अस्ति इति. ओन इत्युक्ते तस्मिन्नेव अर्थे अस्ति. तत्र पाद् ओन इति प्रसिद्ध प्रयोगः. अतः पाद् ओन इति अतः पाद ऊन योगः ऊन अतः दश ऊन अथवा इति तदपि कर्तुं शक्नुमः. न्यून अपि कर्तुं शक्नुमः.
किञ्चित् भेदः अस्ति वा महोदय? ऊन अपि न्यून
न यथा रघुपतिमहोदय वदति तत्र पादोन इति सुलभतया वक्तुं शक्नुमः. तत्र
पादोन तत्र पादोन इति दत्तमस्ति किन्तु दश दश अथवा पञ्च इति अस्ति चेत् पञ्च
न्यून
इति. किन्तु तत्र भेदः नास्ति. न्यून अपि ऊन अर्थः समान अस्मिन्. न्यून इत्युक्ते मैनस् इति, ऊन इति टु इति अर्थे.
मिस्सिङ्ग्
इति अस्ति. पाद इति अस्ति अतः ऊन एव. यदा पाद अस्ति अङ्गस्य ऊन भवति ऊन. अतः एव अहं चिन्तयामि यदा पाद अस्ति तदा ऊन एव, यदा पाद नास्ति तत्र न्यून इति भवितुम् अर्हति. अहं चिन्तयामि, अहं न जानामि. ऊन
किन्तु
ऊन एव भवति.
किन्तु किन्तु तत्र ऊन अस्तु अस्तु
अतः
अस्तु प्रायशः अस्तु. अस्तु, अतः वयम् एतत् कुर्मः. यदि पाद अस्ति चेत् ऊन इति वदामः, नो चेत् न्यून इति यथा अभ्यासपुस्तके दत्तं तदेव कुर्मः. नो चेत् तत्र विकल्पः अस्ति चेत् किं करणीयम् इति मनसि क्लेशः भवति. अतः पाद ऊन पादोन नास्ति चेत् न्यून इति तस्य तद् अनुसरामः. अस्तु, अस्तु. अग्रे इदानीं गीतासोपानं पुस्तकम् एव अग्रे. तत्र पेज् 74 तत्र श्वः कस्य जयः इति. तत्र वेणुगोपाल् महोदय पठति वा तत्र? वंशीसुधा भगिनी नमस्कारः.
नमस्ते महोदय.
नमस्कारः.
विजयदशमी शुभाशयाः महोदय.
भवती अपि सर्वेभ्यो विजयदशमी नमस्कारः, शुभाशयाः.
धन्यवादः
महोदय. धन्यवादः, शुभाशयाः महोदय.
धन्यवादः भगिनी. अस्तु अस्तु. अत्र वेणुगोपाल् महोदय पेज् 74 श्वः कस्य जयः इति.
आम् महोदय. श्वः कस्य जयः? उच्चैः पठत जानीत च. अद्य श्वः परश्वः प्रापरश्वः
प्रपरश्वः तत्र प्रपरश्वः
प्रपरश्वः यः परह्यः यः प्रपरह्यः
प्रपर प्रपरह्यः
प्रपरह्यः
एतत् अभ्यासपुस्तके वयं कृतवन्तः. सर्वे स्मरन्ति वा?
आम् महोदय.
अद्य श्वः परश्वः प्रपरश्वः ह्यः परह्यः प्रपरह्यः. अस्तु, वदतु महोदय. अत्र
अस्तु, अद्य सोमवासरः, श्वः मङ्गलवासरः, परश्वः बुधवासरः, परश्वः गुरुवासरः, सोमवासरः ह्यः रविवासरः.
न न, इदानीं तत्र ह्यः रविवासरः तत्र अहं न जानामि किमर्थं तत्र केवलं हा तत्र सोमवासरे द्विवारं दत्तम् अस्ति हा किन्तु द्वितीयवारं त्यजतु ह्यः रविवासरः
ह्यः अस्तु महोदय ह्यः रविवासरः परः
परह्यः
रविवासरः
न न परह्यः परह्यः
मम प्रश्नः इट्स् बिट् डिफ्रेण्ट् महोदय तत्र तत्र यः रविवासरः अस्ति किन्तु तत्र पुनः रविवासरः दत्तम् अस्ति
तदपि त्यजतु तदपि त्यजतु हा केवलं परह्यः इति वदतु हा परह्यः
ह्यः रविवासरः परह्यः शनिवासरः प्रा परह्यः शुक्रवासरः
हा इति अस्तु तत्र अद्य सोमवासरः अस्ति चेत् श्वः कः वासरः परश्वः कः वासरः प्रपरश्वः कः वासरः अपि ह्यः कः वासरः परह्यः कः वासरः प्रपरह्यः कः वासरः इति सप्तवासराः दत्तानि दत्ताः सन्ति किन्तु सप्ताहे सप्तवासराः एव सन्ति खलु अतः सर्वे वासराः तत्र आगताः तत्र दत्ताः सन्ति अस्तु इदानीम् एतद् अभ्यासपुस्तके तत् कृतवन्तः किन्तु पुनरेकवारं कुर्मः हा एकमेकम् अहं वदामि तत्र भवन्तः एव परस्परं प्रश्नं पृच्छन्तु अस्तु तत्र गीताञ्जलिभगिनी वंशीसुधा भगिनीं पृच्छतु एतादृश अद्य कोऽपि वासरः श्वः वा प्रपरश्वः वा कः वासरः इति प्रश्नं पृच्छतु भगिनि
अस्तु महोदय भगिनी अद्य रविवासरः प्रपरह्यः
कः वासरः
कः वासरः
कः वासरः प्रपरह्यः शुक्रवासरः
आं भगिनी
न अद्य कः वासरः अद्य रविवासरः अस्ति चेत्
गुरुवासरः
गुरुवासरः अत्र अद्य सोमवासरः प्रपरह्यः शुक्रवासरः अस्ति अस्तु भगिनि वंशीसुधा भगिनी इदानीं भवती पृच्छतु अत्र मधुसूदन महोदय अस्ति रघुपति आचार्य अस्ति रघुपति आचार्यं पृच्छतु
आं महोदय अद्य बुधवासरः प्रपरश्वः कः वासरः महोदय
प्रपरश्वः शुक्रवासरः
अद्य बुधवासरः
अद्य बुधवासरः महोदय
शनिवासरः
प्रपरश्व शनिवासरः अस्तु
प्रपरश्वः शनिवासरः
हा रघुपति महोदय इदानीं मधुसूदन महोदयं पृच्छतु
अद्य मङ्गलवासरः अस्ति यः कः वासरः
ह्यः सोमवासरः
हा अस्तु समीचीनं हा इदानीं मधुसूदन महोदय उषा भगिनीं पृच्छतु
ह्यः शुक्रवासरः परह्यः कः वासरः परह्यः
ह्यः शुक्रवासरः
परह्यः
परह्य गुरुवासरः
गुरुवासरः समीचीनं हा अस्तु उषा भगिनी शोभा भगिनीं पृच्छतु
अद्य बुधवासरः प्रपरश्वः कः वासरः
गुरु शुक्र शनि प्रपरश्वः शनिवासरः
हा अस्तु शोभा भगिनी इदानीं वेणुगोपाल महोदयं पृच्छतु
अद्य रविवासरः परह्यः कः वासरः
परह्यः बुधवासरः न न परह्यः बुधवासरः भगिनि
अद्य रविवासरः महोदय
रविवासरः ह्यः शनिवासरः परह्यः शुक्रवासरः
आम्
शुक्रवासरः
आं महोदय
शुक्रवासरः अस्तु हा वेणुगोपाल महोदय भवान् गीताञ्जलि भगिनीं पृच्छतु।
भगिनी, अद्य बुधवासरः, परह्यः किम् अस्ति?
कः वासरः? कः
वासरः?
अद्य बुधवासरः अस्ति चेत्
परह्यः
सोमवासरः।
सोमवासरः, हा, समीचीनम्। अस्तु, हा, अस्तु। इदानीं सर्वे एतादृशान् प्रश्नान् प्रष्टुं शक्नुवन्ति। अस्तु, अस्तु, अग्रे गच्छामः। अस्तु, तत्र कः पठति? मधुसूदन् महोदय तत्र अग्रे पठति वा एतं प्रसङ्गम् उच्चैः पठत इति?
एतं प्रसङ्गम् उच्चैः पठत। कुरुक्षेत्रे युद्धं प्रवर्तमानम् एव अस्ति। कौरवानां पाण्डवानां च पक्षे महारथाः रथिकाः योद्धाः अनेके मृताः। सहस्रशः सैनिकाः भग्नावयवाः जाताः। कर्णः अपि हतः। युद्धस्य षोडश
दिवसः
युधिष्ठिरः एवं
विषीदति। समीचीनं महोदय, विषीदति। अस्तु, समीचीनम्। अग्रे वंशीसुधा भगिनी पठति वा?
अस्तु महोदय। अहो, मम दौर्भाग्यम्, अद्य युद्धस्य षोडशं दिनं, ह्यः आचार्यद्रोणस्य दिवङ्गतिः, परह्यः जयद्रथस्य प्राणहानिः, प्रपरह्यः प्रियपुत्रस्य अभिमन्योः स्वर्गगमनं, तत्पूर्वं भीष्मादीनां पतनं, श्वः कस्य जयः कस्य पराजयः न जानामि, परश्वः कस्य जीवनं कस्य मरणं न जानीमः, परपरश्वः तदनन्तरं कस्य कस्य किं किम् इति न ज्ञातं भवति। सर्वस्य अस्य कारणं मम राज्याभिलाषः। अहम् एव सर्वविधस्य क्लेशस्य हेतुः। अहं कथं जीवामि? हा हा
जीवानि जीवानि
जीवानि हा 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 इति रोदति।
समीचीनं भगिनि, धन्यवादः। अस्तु, हा, तत्र तत्र अधोभागे प्रथमतया अत्र विषयः कः अस्ति इत्युक्ते, अद्य, श्वः, परश्वः, प्रपरश्वः, ह्यः, परह्यः, प्रपरह्यः। अत्र अधोभागे दत्तमस्ति कोष्टकं, तत्र अद्य इति, तस्य पूर्वं ह्यः, परह्यः, प्रपरह्यः, दिनत्रयम्, अग्रे भविष्यत्काले श्वः, परश्वः, प्रपरश्वः, तत्रापि दिनत्रयं। यत् पूर्वमस्ति तत्र प्रपरश्वः, प्रपरह्यः आसीत्, परह्यः आसीत्, ह्यः आसीत्, अपि अपि यद् अग्रे आगमिष्यति तत्र श्वः भविष्यति, परश्वः भविष्यति, प्रपरश्वः भविष्यति इति भवति। तत्र तत्र कोष्टकं बहु उत्तमम् अस्ति, एकवारं पश्यतु, अवगच्छतु। इदानीं तत्र कथा, यत् तत्र युधिष्ठिरस्य चिन्तनं, तत्र हा, तत्र गीताञ्जलि भगिनी तत्र किञ्चित् पठित्वा, प्रथमपरिच्छेदः किञ्चित् पठित्वा वाक्ये किं किम् अस्ति, अर्थः कः इति किञ्चित् वदति वा?
आं महोदय। कुरुक्षेत्रे युद्धं प्रवर्तमानमेव अस्ति। कुरुक्षेत्रे सप्तमी युद्धं
युद्धम् अस्ति
अस्ति युद्धम्
अस्ति
प्रथमविभक्ति एकवचनम् अस्ति। प्रवर्तमानं नपुंसकलिङ्ग प्रवर्तमानं
किं प्रवर्तमानम् अस्ति
युद्धं
प्रवर्तमानम् अस्ति अत्र भर्गः प्रवर्तमानः अस्ति
अस्तु महोदय
अद्य इदानीम् अस्माकं वर्गः प्रवर्तमानः अस्ति तत्र कुरुक्षेत्रे युद्धं प्रवर्तमानम् अस्ति प्रवर्तमानम् इत्युक्ते इस् हेपनिङ्ग् प्रवर्तमानम् अस्ति
अत्र वाक्ये महोदय द्वि क्रियापदम् अस्ति प्रवर्तमानम् अपि च अस्ति
तत्र प्रवर्तमानम् इति तत्र प्रवर्तमानं क्रियापदं नास्ति तत्र प्रवर्तमानं युद्धम् इति पदस्य विशेषणम् अस्ति अतः एव अस्माकं वर्गः प्रवर्तमानः युद्धं प्रवर्तमानम्
कौरवाणां पाण्डवानां च पक्षे महारथाः रथिकाः योधाः अनेके मृताः
इत्युक्ते
कौरवाणां पाण्डवानां च द्वयोः षष्टिविभक्ति बहुवचन च पक्षे इत्युक्ते द्वयोः महारथाः रथिकाः योद्धाः अपि च अनेके
तत्र सेना इति अस्ति खलु पाण्डवानां सेना अस्ति कौरवाणां सेना अस्ति सेना इति अस्ति चेत् पाण्डवानां पक्षे इति स्थाने सेना इति अस्ति चेत् किं भवति
पक्षे इति सप्तमी
अतः सेना अस्ति चेत्
सेनायां
महारथाः
बहुवचन रथिकाः बहुवचन स्त्रीलिङ्ग योधाः
रथिकाः किमर्थं स्त्रीलिङ्गः
सर्वे पुल्लिङ्ग् महोदय
सर्वे पुल्लिङ्ग्
योद्धाः अनेके अनेके सहतौते अपि च बहुवचन
अनेके के
मृताः
इत्युक्ते
तप्रत्यय महोदय
तेषां मरणं जातम् अभवत् मरणम् अभवत् अभवत् इति तत्र मृताः इति पदम् अपि योधाः महारथाः अपि मृताः कः सम्बन्धः तयोः मध्ये विशेषभावः समीचीनं मृताः महारथाः अथवा अत्र किं भवति महारथाः मृताः सन्ति इत्युक्ते तेषां मरणम् अभवत् युद्धे इति ते पाण्डवानां सेनायां महारथाः मृताः सन्ति अथवा तेषां मरणम् अभवत् इति अस्तु तत्र महारथाः अस्ति रथिकाः अस्ति भेदः अस्ति वा तत्र कोऽपि वद अन्य कोऽपि वदति वा वदतु भगिनि
महान् योधा
सर्वे रथे न भवन्ति खलु
सर्वे नास्ति महोदय किञ्चित् लैक्
केचन एव रथे स्थित्वा युद्धं कुर्वन्ति
अस्तु महान् रथे केवलं
न महारथाः इत्युक्ते ते सर्वे महायोद्धाः अपि रथे स्थित्वा युद्धं कुर्वन्ति खलु ते श्रेष्ठ योद्धाः
कथं जानीमः रथं स्थापित
रथे स्थित्वा, रथे स्थित्वा महारथाः इत्युक्ते रथे स्थित्वा युद्धं कुर्वन्ति, पादे स्थित्वा युद्धं न कुर्वन्ति खलु ते, अर्जुनः पादे युद्धं रथे स्थित्वा युद्धं करोति इति महारथः. रथिकाः इत्युक्ते उषा भगिनी, रथिका इत्युक्ते रथिकः इत्युक्ते किं भगिनि?
फुट् सोल्जर्स्.
रथिकः रथिकः इत्युक्ते अस्तु, योद्धा, योद्धा इत्युक्ते
रथिका इत्युक्ते चारियट्
स्माल् चारियट्
वा?
तदेव अहमपि चिन्तितवान्, किन्तु
चारियट् इति अस्ति
तत्र
रथं चालयति रथिकाः
इति भवति वा? एकवारं पश्यन्तु.
अत्र अत्र पश्यामि महोदय, रथिका इत्युक्ते चारियट्, द ड्रैवर् ओनर् आफ् ए कार् आर् चारियट्,
चारियटियर् अस्तु, रथिकाः चारियटियर् अस्तु, योद्धा योद्धः सोल्जर् इति प्रायशः.
किन्तु महारथ अपि च चारियटियर्?
न न न, महारथः चारियटर् नास्ति भगिनि, चालकः रथस्य चालकः नास्ति खलु, तत्र अर्जुनः अस्ति, तत्र चालक, तत्र रथिकाः इत्युक्ते सारथिः इति तादृश अर्थे इति मन्ये.
अस्तु सारथि.
अस्तु, योद्धाः अनेके मृताः. अस्तु अग्रे शोभा भगिनी पठति वा अग्रे?
आम् महोदय. सहस्रशः सैनिकाः भग्नावयवाः जाताः, कर्णः अपि हतः, युद्धस्य षोडशः दिवसः, चिन्ताकुलः युधिष्ठिरः एवं विषीदति. सहस्रशः सैनिकाः भग्नावयवाः जाताः, तत्र भग्नावयवाः विशेषणं सैनिकाः पदस्य विशेषणम् अस्ति. सहस्रशः सहस्राणि
बै थौसण्ड्स् इति बै थौसण्ड्स्
सैनिकाः
सैनिकाः जातः, तत्र लघुवाक्यमस्ति सैनिकाः जातः, तत्र कीदृशः जातः? भग्नावयवाः, अवयवः इत्युक्ते पार्ट्स् इति, भग्नः भग्नः इत्युक्ते
फ्राक्चर्ड् ब्रोकन् इति,
तत्र भग्नः इति, यस्य अवयवः भग्नः सः भग्न अवयवः इति. तत्र
क्षम्यता महोदय, सहस्रशः किं रूपं महोदय?
तत्र शः इति अन्ते अस्ति, तत्र पङ्क्तिशः इति बै बै इति, इन् इन् थौसण्ड्स् ओर् बै थौसण्ड्स् इति.
ओ अस्तु
अस्तु, पङ्क्तिशः पठतु, डू बै लैन्, परिच्छेदशः पठतु इति, तत्र डू ग्रूप् ग्रूप् तत्र समूहः करोतु इति तादृश अर्थे.
अर्थमस्ति इन् थौसण्ड्स्, इन् थौसण्ड्स् सैनिकाः,
इन् थौसण्ड्स्, इन् थौसण्ड्स् इति.
अस्तु महोदय,
सहस्रशः सैनिकाः, थौसण्ड्स् आफ् सोल्जर्स् इति अर्थे, और् सोल्जर्स् गाट् डिस्फिगर्ड् इन् थौसण्ड्स्. भग्न अवयवाः जाताः. अग्रे
कर्णः अपि हतः, तत्र कर्णस्य अपि मृत्युः अभवत्.
तत्र हतः कर्णपदस्य
विशेषणमस्ति,
विशेषणमस्ति.
हन्तनम् अभवत् कर्णस्य,
हन्तनं न, हननं न, हननं वा, हननं प्रायशः, हननं,
हननम् अभवत्. युद्धस्य षोडशः दिवसः, तत्र युद्धारम्भं कृत्वा षोडशः दिवसाः अभवत् अभवन्
पूर्वं पूर्वं हा युद्धारम्भं कदा अभवत् पञ्चादश दिनात् पूर्वम् अभवत् अद्य षोडशः
दिवसः चिन्ताकुलः युधिष्ठिरः एवं विषीदति
चिन्ताकुलः
तत्र युधिष्ठिरस्य विशेषणं चिन्ताकुलः इति अस्ति चिन्ताकुलः युधिष्ठिरः एवं विषीदति विषीदति विषाद इति पदस्य
हा तादृश विषाद इति यत् पदम् अस्ति तस्मिन् अर्थे हा हा
विषीदति युधिष्ठिरः खिन्नः भवति दुःखतप्तः इति अग्रे पठामि वा महोदय
हा तावत् समीचीनमस्ति भगिनि हा तत्र युधिष्ठिर इदानीं तस्य सः चिन्तामग्नः अस्ति चिन्ताकुलः चिन्तामग्नः चिन्तामग्नः युधिष्ठिरः एवं विषीदति सः अखिन्नः अस्ति चिन्तां करोति किं किं भवति किं किम् अभवत् इति चिन्तनं करोति बहु खिन्नः अस्ति सः तस्य चिन्तनं किम् इति अग्रे भवति अस्तु समीचीनम् अग्रे तत्र अस्तु हा तत्र उषा भगिनी अग्रे वदति वा किं किम् अस्ति इति
अहो मम दौर्भाग्यं दौर्भाग्यम् इत्युक्ते लैक् बेड् लक्
मम दौर्भाग्यम्
अद्य युद्धस्य षोडशं दिनं षोडशं नपुंसकलिङ्ग अस्ति दिनमपि नपुंसकलिङ्गम् अस्ति
तत्र किं कः सम्बन्धः
विशेषणविशेषण
अतः एव पूर्वं षोडशः दिवसः
अत्र
षोडशं दिनं समीचीनं
पूर्णप्रत्ययान्तरूप अस्ति न महोदय
कुत्र
षोडशः षोडशी षोडशं
हा 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 सत्यं 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 भगिनि इदानीं वयं न कृतवन्तः अग्रे आगच्छति
यः आचार्यद्रोणस्य दिवङ्गतिः
एकनिमिष भगिनि एकनिमिष यद् भवती उक्तवती तद् केवलम् एकं वाक्यं वदामि तत्र भवती उक्तवती षोडशम् अथवा षोडशः इति तस्य रूपं कीदृशः इति वयं सङ्ख्यायां सङ्ख्याविषये किं कृतवन्तः वयम् एकः द्वे त्रीणि तादृशविषयं चर्चितवन्तः तत् आङ्ग्लभाषायां किं भवति 1, 2, 3 इति भवति किन्तु हा किन्तु फस्ट् सेकेण्ड् थर्ड् इति तादृशरूपं वयं न दृष्टवन्तः तत्र प्रथम द्वितीय तृतीय इति तत्तु तादृशरूपः तत्र षोडशः इति भवति तत् 16 days इति न 16th day इति अस्ति खलु अतः हा इति अतः अस्तु भगिनि समीचीनमेव अस्तु भगिनि अग्रे वदतु
यः आचार्यद्रोणस्य दिवङ्गतिः आचार्यद्रोणस्य अपि मरणं
कदा अभवत्
ह्यः
ह्यः अभवत् हा समीचीनं
परह्य जयद्रथस्य
परह्यः
परह्यः
तत्र परह्य न तत्र विसर्गः अपि अस्ति खलु परह्यः इति
परह्यः जयद्रथस्य प्राणहानिः
प्राणहानिः इत्युक्ते
जयद्रथस्य प्राणहानि इत्युक्ते मरणं प्राप्तवान्
सः अपि मरणं प्राप्तवान् सत्यं
प्रपरह्यः प्रियपुत्रस्य अभिमन्योः स्वर्गगमनम्
इत्युक्ते
अभिमन्यु अपि मरणं प्राप्तवान्
किन्तु तत्र भेदः अस्ति वा जयद्रथस्य स्वर्गगमनम् इति सः चिन्तयति वा अस्तु यदि कथं जानीमः किमपि वक्तुं शक्नुमः, किन्तु इदानीं मास्तु.
अस्तु,
अत्र अभिमन्योः अपि षष्ठी विभक्ति एकवचनं. हा समीचीनं भगिनि. हा अस्तु, अग्रे
वदतु. अत्र द्रोणस्य दिवङ्गतिः अपि उक्तवान् न महोदय, तत्र स्वर्गगमनमपि अस्ति.
तद् न जानीमः, प्रायशः स्वर्गगमनमेव चिन्तितुं शक्नुमः खलु भगिनि.
अस्तु महोदय.
न जानीमः, किन्तु केवलं तत्र केवलं पुत्रस्य स्वर्गगमनम् इति सर्वे एतादृशचिन्तनमेव कुर्वन्ति खलु, अतः अहम् उक्तवान्.
महोदय, अत्र दिवं गतिः इति पदस्य दिवं गतिः अस्ति वा अथवा देवम् इति गतिः
तत्र तत्र किमपि सन्धिकार्यम् अस्ति भगिनि. तत्र दिवं दिवम् इति भवति प्लस् गतिः, किन्तु तत्र मकारः अन्तिम पवर्गे अनुनासिकवर्णः इति कृत्वा, अपि गा इति कवर्गे अस्ति इति कृत्वा तत्र मकारः इङ् इति भवति, अतः दिवं गतिः इति भवति. तत्र सन्धिकार्यम् अस्ति.
पदमपि उत्तमं पदम् एव अस्ति वा महोदय?
किं भगिनि?
स्वर्गगमनम् इति पदस्य समानम् अस्ति वा दिवं गतिः?
हा प्रायशः. हा सत्यं भगिनि, अहं न चिन्तितवान् यतः पूर्वं. हा 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 प्रायशः प्रायशः देवं देवं हा देवलोकं देवलोकं प्राप्तवान्. हा देवलोकं प्राप्तवान् इति अर्थे इति अर्थे इति अर्थे सत्यं भगिनि, सत्यं सत्यं. आचार्यः देवलोकं प्राप्तवान्. समीचीनं भगिनि, मम मनसि अर्थः आसीत् किन्तु अहं तस्य मनसि चर्चा न कृतवान्, किन्तु सत्यं भगिनि. हा दिवङ्गतिः इत्युक्ते स्वर्गगमनम् एव इति सत्यम्. अस्तु समीचीनं. हा अग्रे उषा भगिनि.
तत्पूर्वं भीष्मादीनां पतनं, तत्पूर्वं भीष्म आदीनां पतनं, भीष्मस्य मरणं न प्राप्तवान् परन्तु कस्य जयः कस्य पराजयः न जानामि. युधिष्ठिरः वदति लैक् श्वः कस्य जयः कस्य पराजयः इति
भवति भविष्यति इति
अहं न जानामि
जानामि.
परश्वः कस्य जीवनं कस्य मरणं न जानीमः. परश्वः कस्य
कस्य जीवनं तिष्ठति कस्य मरणं भविष्यति इति न जानीमः न जानीमः.
प्रपरश्वः तदनन्तरं कस्य कस्य किं किम् इति न ज्ञातं भवति. तदनन्तरं कस्य कस्य किं किं किम् इति न ज्ञातं भवति. सर्वस्य अस्य कारणं मम
राज्याभिलाषः. सः राजः, तस्य राज्यम् अस्ति, राज्यस्य अभिलाषः.
अभिलाषः इत्युक्ते इच्छा.
मम राज्यं भवतु इति इच्छा.
महोदय, अत्र प्रपरश्वः तदनन्तरं कस्य कस्य किम् इति न ज्ञातं भवति इति तस्य ज्ञातम् इति तस्य विभक्ति
ज्ञातम् इति पठितं तत्र तत्र ज्ञातं तस्य ज्ञानं न
कर्मणि कर्मणि ज्ञातं सारी ज्ञातं ज्ञातं भवति
अस्माकं न हा अस्माभिः न ज्ञातं.
हा
न ज्ञातं मया न ज्ञातम् अस्ति इति सत्यं महोदय. हा तत्र पूर्वं जानीमः इति आसीत् इदानीं ज्ञातं न भवति इति सत्यं हा
सर्वस्य अस्य कारणं मम राज्याभिलाषः
सर्वस्य अस्य कारणं सर्वस्य अस्य इत्युक्ते
मरणस्य सर्वस्य मरणस्य कारणं
सर्वस्य सर्वेषां सर्वेषां मरणस्य मरणस्य कारणं कारणं मम राज्याभिलाषः
अहम् एव सर्वविधि
विधस्य सर्वविधस्य
क्लेशस्य हेतुः
एतत् सर्वम् एवं सर्वं मया एव मम अभिलाषेन एव
हेतुः इत्युक्ते कारणं न
हेतु इत्युक्ते कारणम् इति अर्थे कारणमेव मम अहमेव क्लेशस्य हेतुः अहमेव कारणम्
अहं कथं जीवानि
लोट्लकारः लोट्लकारः सत्यं स्मरन्ति वा सर्वे लोट्लकारः अत्र लोट्लकारः अहं कथं जीवानि
जीवतु जीवतां जीवन्तु
कथं जीवानि
महोदय तत्र लोट्लकारं लोट्लकार रूपं किमर्थं तत्र प्रयोजयति तत्र
हौ शाल् ऐ लीव् इति हौ शाल् ऐ लीव्
ओ हौ शाल् ऐ लीव् अस्तु
जीवामि इति सम्यक् एव न महोदय तत्र आज्ञाया प्रार्थना नास्ति न महोदय जीवामि इति अपि सम्यक् एव न भवति
हा किन्तु प्रायश एषः एव प्रयोगः तत्र दत्तं प्रश्नार्थकः इत्युक्ते अहं कथं जीवानि इत्युक्ते तत्र प्रश्नार्थक अस्ति हा हौ शुड् ऐ लीव् इति केन् ऐ लीव् तत्र स्वयमेव प्रश्नं पृच्छति मम अहं जीवितुं अर्हः वा इति
प्रयोगं किञ्चित् भिन्नः अस्ति
तत्र यथा अहं सर्वदा वदामि तत्र लोट्लकारे उत्तमपुरुषे एकवचनरूपम् अहं गच्छामि वा इति प्रार्थना अथवा प्रश्नः अस्ति अहं गच्छामि वा गन्तुं शक्नोमि वा इति तादृशेव अहं कथं जीवानि कथं जीवितुम् मम अर्हता अस्ति न वा इति तत्र प्रश्नः तदनन्तरं हा 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 अस्तु इति रोदिति अस्तु
समीचीनं
न न अत्र रोदिति एव हा 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 इति तस्य चित्रे अपि दत्तमस्ति खलु सः तु न हसति महोदय अस्तु हा इदानीं तत्र अभ्यासः अस्ति हा अत्र एव एकम् अभ्यासं कर्तुं शक्नुमः तत्र इदानीम् एतत् चिन्तयामः अद्य इति यत् यत् आसीत् तत्र सोमवासरः इति अस्ति अस्तु तदेव अद्य सोमवासरः इति चिन्तयामः यस्मिन् दिने युधिष्ठिरः एतत् चिन्तनं करोति सः सोमवासरः इति चिन्तयन्तु अस्तु अस्तु इदानीम् अतः युद्धस्य षोडशः दिवसः सोमवासरः इति अस्तु अस्तु वंशीसुधा भगिनी ह्यः कः वासरः
ह्यः पञ्चदशवासरः
न न केवलं वासरः अद्य अद्य यस्मिन् दिने
ह्यः अस्तु रविवासरः ह्यः
रविवासरः अस्तु रविवासरे किम् अभवत् कः मृतः?
रविवासरे आचार्यद्रोणस्य
दिवङ्गतिः. अस्तु, हा अस्तु, समीचीनं. मधुसूदन महोदय, परह्यः कः वासरः?
अद्य सोमवासरः.
हा सत्यम्, अद्य सोमवासरः.
परह्यः शनिवासरः.
शनिवासरः. हा, तस्मिन् दिने कस्य मृत्यु अभवत्?
आचार्य
सः तु ह्यः. हा, सः ह्यः. परह्यः,
परह्यः अत्र
अग्रिमवाक्यं
परह्यः
न तत्तु प्रपरह्यः. हा, तत्तु केवलं परह्यः.
परह्यः जयद्रथस्य प्राणनि
प्राणहानिः. प्राणहानिः इत्युक्ते मरणं खलु? प्राणहानिः. हा, जयद्रथस्य मरणम् इति. अस्तु अस्तु, इदानीम् अन्या रीत्या प्रश्नः भवतु. तत्र हा, गीताञ्जलि भगिनी, तत्र युधिष्ठिरः कस् हा, तत्र अभिमन्योः स्वर्गगमनं कस्मिन् दिने, कस्मिन् वासरे अभवत्? अद्य सोमवासरः.
अभिमन्योः स्वर्गगमनं
अद्य सोमवासरः,
शुक्रवासरे
अभवत्. हा, समीचीनं भगिनि. अस्तु, हा, तत्र अस्तु, अन्यत् किं तत्र प्रश्नं कर्तुं शक्नुमः? प्रायशः तदेव, किन्तु तत्र श्वः परश्वः तत्र किमपि न वक्तुं शक्नुमः खलु. अस्तु अस्तु, तावदेव. अस्तु, अग्रे गच्छामः. तत्र रघुपतिमहोदय, अग्रिमं तत्र प्रथमाभ्यासः एकवारं पठति वा तत्र?
द्वितीयं वा, उपरि दत्तानां इति वा?
न, केवलं प्रथममेव कुर्मः.
कोष्ठकात् शब्दान् चित्वा. अस्तु, कोष्ठकात् शब्दान् चित्वा रिक्तस्थानानि पूरयत. आसीत् परह्य, परह्य आसीत्, परह्य आसीत्, प्रपरह्य आसीत्, ह्यः आसीत्, अद्य अस्ति, श्वः, परश्वः, प्रपरश्वः, तथा भविष्यति इति. अस्तु, प्रथमम् अस्ति, अद्य मङ्गलवासरः अस्ति, ह्यः सोमवासरः आसीत्.
हा, सोमवासरः आसीत्. अस्तु, हा, अग्रे तत्र गीताञ्जलि भगिनी, अग्रे परह्यः अद्य मङ्गलवासरः अस्ति,
अद्य मङ्गलवासरः अस्ति,
परह्यः,
परह्यः रविवासरः आसीत्.
हा, आसीत् रविवासरः आसीत्, समीचीनं. वेणुगोपाल महोदय,
भानुवासरः महोदय.
हा हा, सत्यं. हा, वेणुगोपाल महोदय, प्रपरह्यः,
प्रपरह्यः शनिवासरः आसीत्.
हा, प्रपरह्यः शनिवासरः आसीत्, समीचीनं. हा, अस्तु, शोभा भगिनी, श्वः.
श्वः, क्षमते, अद्य रविवासरः अस्ति वा महोदय?
न, अद्य मङ्गलवासरः अस्ति, प्रथमं तदेव. हा, अद्य मङ्गलवासरः अस्ति.
अद्य श्वः बुधवासरः
भविष्यति.
भविष्यति.
हा, श्वः बुधवासरः भविष्यति इति. हा, अस्तु. हा, उषा भगिनी, अग्रे.
परश्वः गुरुवासरः भविष्यति.
हा, अस्तु, वंशीसुधा भगिनि.
प्रपरश्वः शुक्रवासरः भविष्यति.
प्रपरश्वः शुक्रवासरः भविष्यति, समीचीनम्. अस्तु अस्तु, प्रथमम् अभ्यासं सुलभतया कृतवन्तः. अस्तु, अग्रे किम् अस्ति? हा, तत्र हा, मधुसूदन महोदय पठति वा अग्रे, उपरि इति?
उपरि दत्तानाम् अभ्यासवाक्यानाम्
आधारेण प्रश्नवाचक प्रश्नवाचकवाक्यानि रचयत. यथा मङ्गलवासरः कदा अस्ति, ह्यः ह्यः सः कः वासरः आसीत्.
समीचीनं महोदय. ह्यः कः वासरः आसीत्
आसीत्
अथवा अत्र एतदपि कर्तुं शक्नुमः, तत्र शनिवासरः कदा आसीत् अस्ति चेत् तत्र चिन्तयामः, तत्र मङ्गलवासरः ह्यः तादृशरूपं कदा आसीत् अथवा कदा अस्ति इति तत्र किञ्चित् चिन्तनम् आवश्यकम् अस्ति इति मन्ये. अस्तु, पश्यामः तत्र. रघुपतिमहोदय अत्र द्वितीयं वाक्यं करोति वा, तत्र मङ्गलवासरः अद्य अस्ति, तत्र प्रश्नवाचकं किमपि वाक्यं करोतु महोदय तत्र. रघुपतिमहोदय अस्तु. शोभा भगिनि
म्यूट्
अस्तु अस्तु अस्तु.
रविवासरः कदा आसीत् इति,
रविवासरः कदा आसीत् इति, रविवासरः
परह्यः आसीत्.
समीचीनं महोदय. अस्तु, शोभा भगिनि.
गुरुवासरः कदा भविष्यति,
गुरुवासरः कदा भविष्यति, उत्तरं
गुरुवासरः मङ्गल बुध परश्वः भविष्यति.
अस्तु, परश्वः भविष्यति, समीचीनं. अस्तु, उषा भगिनि.
शुक्रवासरः कदा भविष्यति, शुक्रवासर अद्य मङ्गलवासर श्वः श्वः प्रपरश्वः शुक्रवारः भविष्यति.
अद्य मङ्गलवासरः अस्ति चेत्
अद्य शुक्रवारः
अद्य अद्य मङ्गलवासरः अस्ति भगिनि.
अद्य मङ्गलवासरः अस्ति, शुक्रवारः कदा भविष्यति,
शुक्रवासरः अद्य मङ्गलवासरः अस्ति चेत् बुधवासरः अस्ति, गुरुवासरः अस्ति,
शुक्रवासरः
प्रपरश्वः भवति, प्रपरश्वः भविष्यति भविष्यति, समीचीनं. अस्तु, अग्रे गच्छामः तत्र. तत्र किम् अस्ति इदानीम् इति तावदेव अस्ति तत्र. एकवारं पश्य पठामः एतदपि. गीताञ्जलि भगिनी अग्रे पठति वा तत्र, उच्चैः पठत इति.
आं महोदय, उच्चैः पठत. पूर्वम् अहं बालः आसम्, इदानीं युवकः अस्मि.
वदतु भगिनि, पठतु पठतु.
इदानीं कः समयः, इदानीम् एकवादनम् अस्ति. सैनिकाः प्रभाते शिबिरे आसन्, इदानीं युद्धक्षेत्रे सन्ति. सुरेशः पूर्वं केरले आसीत्, इदानीं काश्मीरे अस्ति. सरला प्रातः कार्यालयं गतवती, इदानीं नाट्यगृहं गच्छति. पूर्वं हस्तिनापुरं धृतराष्ट्रः पालितवान्. धन्यवादः भगिनी. पूर्वं हास्तिनापुरं धृतराष्ट्रः पालितवान्, इदानीं युधिष्ठिरः पालयति. पश्चात् परीक्षित् पालयिष्यति.
तत्र हस्तिनापुरं विभक्ति का?
द्वितीया महोदय.
द्वितीया. पालितवान् धृतराष्ट्रः किं पालितवान्? धृतराष्ट्रः हस्तिनापुरं पालितवान्. इदानीम् अत्र
हस्तिनापुर
टङ्कणदोषः अस्ति,
प्रायशः प्रायशः अस्तु हा तत्र अत्र विषयः कः इदानीम् इति एकम् इदानीम् इत्युक्ते इदानीम् अपि अन्यत् अत्र अन्यविषयः अत्र अस्ति तत्र अस्ति अस्मि सन्ति इति तद् रूपं जानीमः वर्तमानकालरूपम् इदानीं तत्र आसम् आसन् आसीत् इति तत् अपि गतवती पालितवान् तत्सर्वं भूतकालरूपं तदेव अग्रिम अध्याये आगच्छति भूतकालरूपम् इति किन्तु तत्र पूर्वं अनेकानि क्रियापदानि सन्ति खलु प्रथमतया अस्ति इति क्रियापदस्य अस् धातोः रूपाणि तदेव कृतवन्तः एकवारम् अत्र अग्रिमपुटे तद् हा पेज् 77 तत्र एकवारं पश्यन्तु तत्र तत्र अधोभागे वर्तमानकाले किम् अस्ति अपि भूतकाले किं रूपम् अस्ति इति एकवारं तत्र शोभा भगिनी पठति वा तत्र
महोदय अस् धातोः रूपाणि वर्तमानकाले अस्ति स्तः सन्ति मध्यमपुरुषे असि स्थः स्थ अस्मि स्वः स्मः भूतकाले आसीत् आस्ताम् आसन् आसीः आस्तम् आस्ता आसम् आस्व आस्म
इति भूतकालरूपम् अस्ति अस् धातोः अस्ति आसीत् तदेव अस्ति पूर्वम् अहम् अत्र वाक्ये पूर्वम् अहं बालः आसम् इदानीं युवकः अस्मि इति तादृश वाक्यं हा भवन्तः अपि एकवारं तत्र वदन्तु तादृशवाक्यम् एकमेकं रघुपतिमहोदय केवलम् आसम् अस्मि इति इदानीं तत्र हा रूपत्रयम् अथवा आसीत् अपि अस्ति
पूर्वम् अहं ब्रह्मचारी आसीत् इदानीम् अहम्
आसम्
इदानीम् अहं गृहस्थः अस्मि
हा समीचीनं महोदय हा वंशीसुधा भगिनी
किं वाक्यं
किमपि सः आसीत् सः आसीत् इदानीम् अस्ति तत्र अस्ति आसीत् अपि इदानीं
अस्तु महोदय अहम् अनन्तरं वदामि महोदय
अस्तु अस्तु भगिनि अस्तु गीताञ्जलि भगिनि
महोदय अहं पूर्वस्मिन् देहलीनगरे आसम्
पूर्वम् अहं देहलीनगरे आसम्
इदानीम् अहं लारेन्स् नगरे अस्मि
हा समीचीनं भगिनि हा मधुसूदन महोदय
महोदय पूर्वम् अहं बालकः आसम् इदानीं युवकः अस्मि
इदानीं युवकः अस्मि समीचीनं महोदय वेणुगोपाल महोदय
सिद्धार्थः यः कार्यालये आसीत् इदानीं गृहे अस्ति
इदानीं गृहे अस्ति समीचीनं महोदय हा शोभा भगिनी
पूर्वं मम संस्कृतसम्भाषणस्य कुशलता किमपि नास्ति किमपि नासीत् इदानीं
एकनिमिषे कुशलता अस्तु किमपि नासीत् हा प्रायशः हा
इदानीं किञ्चित् अस्ति
हा अस्तु किञ्चित् हा तत्र हा कुशल अस्तु अस्तु भगिनि हा अस्तु हा उषा भगिनि
पूर्वं मोदी महोदय गुजरात् नगरस्य मुख्यमन्त्री आसीत् इदानीं भारतदेशस्य प्रधानमन्त्री अस्ति
अस्ति समीचीनं भगिनि अस्तु तत्र आसीत् अपि इदानीं अस्ति, आसीत् इत्युक्ते भूतकालरूपम्, अस्ति अस्मि इति तु वर्तमानकालरूपम्, इदानीम् इत्युक्ते इदानीं वर्तमानकाले. अस्तु, अग्रे गच्छामः. तत्र एतावत् कः न पठितवन्तः अथवा पठितवती? कः न पठितवान् अथवा पठितवती? उषा भगिनी पठितवती, शोभा भगिनी पठितवती इति मन्ये. वेणुगोपाल् महोदय पठितवान्, मधुसूदन् महोदय पठितवान्. हा अस्तु, मधुसूदन् महोदय पुनः तत्र कोष्टकस्य इति पठतु महोदय तत्र.
कोष्टकस्य सहायेन अष्टवाक्यानि रचयते. कृष्णः, कुन्ती.
तत्र प्रथमस्तम्भे किम् अस्ति? अष्टपदानि सन्ति खलु, कृष्णः, कुन्ती, सेना, योद्धारः, अहं, वयं, त्वं, यूयम्. एकं चित्वा कृष्णः, कृष्णः इति उपयुज्य एकं वाक्यं वदतु तत्र.
कृष्णः कृष्णः पूजां करोति.
कृष्णः इदानीं
पूजां करोति.
कृष्णः इदानीं पूजां करोति. अस्तु, समीचीनं महोदय. हा, समीचीनम्. अस्तु, गीतञ्जलि भगिनि.
कुन्ती इदानीं
तत्र प्रायशः कृष्णः इति तत्र प्रायशः अन्यत् वाक्यं भवेत् इति मन्ये खलु.
अस्तु महोदय, कुन्ती इदानीं पूजां करोति.
कुन्ती इति, कुन्ती इदानीं पूजां करोति. कृष्णः
सज्जा अपि स्त्रीलिङ्गे अस्ति महोदय.
कुन्ती इदानीं सज्जा अस्ति, तदपि समीचीनं. हा, सत्यं.
सेना सज्जा अस्ति.
सेना अपि सज्जा अस्ति, तदपि कर्तुं शक्नुमः. अस्तु, तत्र कुन्ती इदानीं पूजां करोति, तद् समीचीनं,
सम्यक् अस्ति.
हा, किन्तु कृष्णः अन्यत् किमपि वाक्यं तत्र एकवारं वदामः. अस्तु, मधुसूदन् महोदय पुनरेकवारम् अन्यत् वाक्यं वदति वा? कृष्णः इदानीं पाञ्चजन्यं धमति. समीचीनं महोदय. अस्तु, हा, समीचीनं.
इत्युक्ते महोदय, इत्युक्ते
पाञ्चजन्यं, तस्य शङ्खः इति मन्ये.
शङ्खस्य नाम
अस्ति पाञ्चजन्यम् इति. हा, अस्तु, अग्रे रघुपति महोदय.
अस्तु महोदय, सेना इदानीं सज्जा अस्ति.
हा, तावदेव. तत्र सेना इदानीं खिन्ना सन्ति इति तत् तादृशं तु न वक्तुं शक्नुमः.
सेना,
सत्यं महोदय. अस्तु, हा, वेणुगोपाल् महोदय.
योद्धारः बहुवचनमस्ति महोदय. योद्धारः धीराः भवन्तु.
हा, तत्र पेज् कुत्र? 13 इति मन्ये, तत्र एव न 13 न. अस्तु अस्तु, प्रायशः 11 इति मन्ये. योद्धारः, हा हा हा, तत्र, हा, पेज् 11 11 पुटे. भवान् योद्धा, भवन्तौ योद्धारौ, भवन्तः योद्धारः इति. अस्तु, हा, समीचीनं महोदय. धीराः भवन्तु, समीचीनम्. अस्तु, समीचीनं महोदय. अस्तु, तत्र शोभा भगिनी अग्रे.
अहम् इदानीं निद्रामग्नः नास्मि.
समीचीनं भगिनी. हा, अस्तु, उषा भगिनी.
वयम् इदानीं भवतः सहायकाः स्मः.
हा, वयम् इदानीं भवतः सहायकाः स्मः. समीचीनं. हा, अस्तु. वंशीसुधा भगिनी,
त्वं तं स्मरसि?
त्वम् इदानीं
तं स्मरसि, मध्यमपुरुषे अस्ति महोदय.
हा, तं स्मरसि, अस्तु. केवलं तदेव अस्ति खलु तत्र? हा, तत्र अन्य विकल्पः नास्ति. हा, विकल्पः नास्ति. अस्तु. हा, अस्तु. हा, रघुपति महोदय.
यूयं 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 खिन्नाः सन्ति.
खिन्नाः यूयं यूयम् इति अस्ति महोदय.
अस्तु. यूयं यूयं स्मः. ओके, नानु सारि, यूयम् इति किमस्ति?
जयं
सोरि, यूयम् इदानीं जयं वदत इति अस्ति. मध्यमपुरुष, बहुवचनं
मध्यमपुरुष अस्ति. हा, गीताञ्जलि भगिनी, अन्यत् किमपि वाक्यं तत्र वक्तुं शक्नोति वा अत्र? तत्र योद्धारः इदानीं इदानीं धीराः भवन्तु इति आसीत्, किन्तु योद्धारः इदानीं
खिन्नाः
सन्ति. हा, तादृशता तावदेव अस्ति इति मन्ये खलु? तत्र अन्यत् अन्यत् किमपि नास्ति. अस्तु, अस्तु. हा, अस्तु, अस्तु भगिनि, भवती एव अग्रिमं पठतु तत्र.
यथोदाहरणं वाक्यानि रचयत. उदाहरण, पूर्वं दुर्योधनः हास्तिनपुरं कुरुक्षेत्रं. पूर्वं दुर्योधनः हास्तिनपुरे आसीत्, इदानीं कुरुक्षेत्रे अस्ति. अभिमन्युः बालः युवकः. पूर्वम् अभिमन्युः बालकः आसीत्. बालः आसीत्. इदानीं युवकः अस्ति.
समीचीनं भगिनि, अस्तु.
महोदय, अत्र बालः इति बालावस्था, बालक इति भिन्नास्ति न किञ्चित्? बालः अपि बालकः अत्र अर्थमध्ये, बालः अपि बालकः,
बाले आसीत्. समीचीनं वा महोदय? इन् चैल्ड्हुड्
बालः
बालः बालकः कः भेदः भवान्?
बालः बाल्यं बाल्यम् आसीत्, बाल्यं बाल्यं बालः,
बाल्यावस्था मध्ये अस्ति,
बाल्यावस्था, अतः बालः
अस्ति.
यदा बाल्यावस्थायाः विवक्षा अस्ति चेत् बालः.
बालकः इत्युक्ते तत्र कः भेदः?
बालकः इत्युक्ते सा तत्र बाल्यावस्थायाः किमपि स्ट्रेस् नास्ति अत्र. बालकः सामान्यपदः अस्ति वा? अहं चिन्तयामि, न जानामि.
महोदय, बालः भाव भाव बालकः इत्युक्ते तिङन्तपदम्.
अस्तु, किन्तु अर्थ भेदः अस्ति वा?
अर्थ चैल्ड्हुड् बोय्.
अस्तु,
न जानामि.
अस्तु, अस्तु.
बालः इति बाय् इति अस्ति.
अस्तु, अस्तु. प्रायशः तत्र किं किमपि कोऽपि भेदः अस्ति, किन्तु सम्यक्तया न
जानामि.
निर्माणे भेदः प्रायशः अस्ति, किन्तु अर्थभेदः अस्ति वा इति? अर्थभेदः अस्ति वा?
अर्थभेदः नास्ति. अहं बालः अस्मि, अहं बालकः अस्मि, अहं बालः अस्मि, तत्र किञ्चित् अर्थभेदः भवति न?
तदेव अहं सम्यक्तया न जानामि महोदय.
न न अहम् अध्ययने संस्कृते संस्कृत वयं संस्कृत भाषायां बालाः बालाः स्मः इति.
अस्तु 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 तादृश तादृश अस्तु 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 इदानीम् इदानीम् अवगच्छामि. अस्तु महोदय अस्तु अस्तु अस्तु. तत्र बालकः इत्युक्ते केवलम् एकम् एकः एव अर्थः अस्ति, किन्तु बालः इत्युक्ते तत्र बाल्यावस्था इति, कस्मिन् विषये बालाः स्मः इति तादृश इदानीम् अवगच्छामि. अस्तु महोदय सत्यं सत्यं बालकः इत्युक्ते तत्र एतादृशप्रयोगः न कर्तुं शक्नुमः.
वयमपि बालाः भवितुम् अर्हति अत्र
अस्मिन् अस्मिन् विषये वयं बालाः स्मः. यदि यद्यपि वयं बालकः न स्मः किन्तु अस्मिन् विषये वयं बालाः स्मः इति वक्तुं शक्नुमः. अस्तु महोदय सत्यं सत्यं सत्यम् इदानीम् अवगच्छामि. सत्यं महोदय सत्यं.
तदनन्तरं महोदय बालः हास्तिनापुरे सप्तमी अत्र बालः अपि च सप्तमी समीचीनं वा महोदय?
बालः हस्तिनापुरे आसीत् अथवा तत्र बालः आसीत् तत्र अत्र किं भगिनि तत्र कुत्र आसीत् इति देशस्य न तत्र दुर्योधनः कुत्र आसीत् इति भवती अपि उपयोगं कृतवती खलु भवती देहलीनगरे आसीत् इति. तत्र यत् भवती पठितवती पूर्वं तत्र पश्यतु प्रथमवाक्यं पूर्वम् अहं बालः आसम् तदनन्तरम् अन्यत् वाक्यं किं तत्र सुरेशः पूर्वं केरले आसीत्
अत्र किम् अस्ति किम् आसीत्
तत्र सप्तमी अपि भवितुम् अर्हति प्रथमा अपि भवितुम् अर्हति. कीदृशः कीदृशः कः आसम् पूर्वम् अथवा का आसम् अहं कः आसम् अथवा अहं का आसम् इति तस्य विवरणं कर्तुं शक्नुमः खलु तत्र बालः आसम् बाला आसम् इति. तत्र सप्तमी इति तस्य आवश्यकता नास्ति खलु भगिनि?
आवश्यकता नास्ति किन्तु अहं केवलं
अत्र आसीत् आसम् एतत्तु साधारणप्रयोगः अस्ति खलु भगिनि तत्र वाक्यम् अस्ति केवलम् अत्र विषयः कः प्रथमभागे भूतकालरूपम् अपि द्वितीयभागे वर्तमानकालरूपं तावदेव किन्तु वाक्यं साधारणवाक्यमेव अस्ति. अहं गृहम् गृहे आसम् इदानीम् अहं मन्दिरे अस्मि अथवा अहं छात्रः आसम् इदानीमपि छात्रः अस्मि खलु. तत्र भेदः किमपि नास्ति भगिनि वाक्ये सप्तमी विभक्तिः अस्ति न वा इति तद् विषयः नास्ति. क्रियापदस्य रूपं कीदृशम् इति तदेव अत्र सः एव विषयः अत्र
इति अहम् अवगच्छामि महोदय केवलं सूचनार्थम्.
अस्तु भगिनि इदानीं समीचीनं वा?
अस्तु महोदय
अस्तु अस्तु अग्रे शोभा भगिनि.
अत्र युद्धारम्भे युद्धारम्भे अर्जुनः खिन्नः सन्तुष्टः इति अस्ति. पूर्वं न युद्धारम्भे अर्जुनः खिन्नः आसीत् इदानीं सन्तुष्टः अस्ति.
तावदेव अस्तु. उषा भगिनी.
आं महोदय ऋषिकेशः उत्तरप्रदेशः उत्तराखण्डे पूर्वं ऋषिकेशः उत्तरप्रदेशे आसीत् इदानीं उत्तराखण्डे अस्ति.
उत्तराखण्डे अस्ति समीचीनं भगिनि. अस्तु अग्रे वेणुगोपाल महोदय.
आं महोदय इतः पूर्वं द्वापरयुगम् आसीत् इदानीं कलियुगम् अस्ति.
इदानीं कलियुगम् अस्ति समीचीनं. मधुसूदन महोदय.
महोदय. भीष्मः पूर्वं युद्धक्षेत्रं भीष्मः पूर्वं युद्धक्षेत्रम् आसीत्.
न न, युद्धक्षेत्रे कुत्र आसीत्? युद्धक्षेत्रे
युद्धक्षेत्रे आसीत्. इदानीं शरशय्या
इति कीदृशपदम्? स्त्रीलिङ्गपदं वा पुल्लिङ्गपदं वा?
स्त्रीलिङ्गशब्दः
अस्तु. तत्र तत्र हा स्त्रीलिङ्गे सप्तमविभक्तिरूपं जानाति खलु महोदय? लता अस्ति चेत् एकवचने किं भवति? वाटिका, वाटिकायां. पेज् 63 पश्यतु तत्र. शय्यायाम् इति. शय्यायां
श्वः पूर्वं युद्धक्षेत्रे आसीत्, इदानीं शय्यायाम् अस्ति.
शरशय्यायां शर इत्युक्ते किम्? शर इत्युक्ते किं जानाति वा? शर इत्युक्ते अरु अरु अरु. शय्या इत्युक्ते बेड्, बेड् आफ् अरोस्. भीष्मस्य प्रसिद्धकथा अस्ति खलु शरशय्यायां. शरशय्यायाम् अस्ति इदानीं. शरशय्यायाम् अस्ति. समीचीनं महोदय. गीताञ्जलि भगिनी अग्रे.
पाण्डवाः वनम् इन्द्रप्रस्थः. पूर्वं पाण्डवाः वनं वने
आसन्
बहुवचन. इदानीं पाण्डवाः इन्द्रप्रस्थे सन्ति.
समीचीनं. वंशीसुधा भगिनी.
आं महोदय. कर्णः सामान्यः अङ्गराज्यः. पूर्वं कर्णः सामान्यः
सामान्यः सः राजः न किमपि कोऽपि नासीत् खलु?
आं महोदय. पूर्वं कर्णः सामान्यः आसीत्, इदानीं कर्णः अङ्गराजः अस्ति.
अस्ति, सत्यं. रघुपतिमहोदय.
यूसुः कौरवपक्षीयः, पाण्डवपक्षीयः. यूसुः पूर्वं कौरवपक्षीयः आसीत्, इदानीं पक्षान्तरं कृत्वा पाण्डवपक्षीयः अस्ति.
अस्ति इति. समीचीनम्. अस्तु, तत्र आसीत् अस्ति इति. तदपि यत् वयं कृतवन्तः तत्र प्रायशः तदपि एकवारम् एतद् पश्यामः तत्र रूपम्, अस् धातोः रूपं तत्र उदाहरणं पश्यामः तत्र अग्रिमपुटे. तत्र कः पठितुमिच्छति? एतावत् सर्वे पठितवन्तः इति मन्ये. अस्तु, वंशीसुधा भगिनी पठति वा अग्रे?
द्वाविंशति.
सत्यं भगिनि.
किं कुर्वत सञ्चय, उच्चैः पठत जानीत च, भूतकालः अस्थातुः. एषः अर्जुनः अस्ति, अज्ञातवासे एषः बृहन्नला आसीत्. एषा द्रौपदी अस्ति, अज्ञातवासे एषा सैरन्ध्री आसीत्. युधिष्ठिरः अज्ञातवासे एषः कङ्कः आसीत्. भीमः अज्ञातवासे एषः वल्लवः आसीत्. नकुलः अज्ञातवासे एषः क्रन्दिकः आसीत् सहदेवः अज्ञातवासे एषः तन्तिपालः आसीत्
अत्र आसीत् अस्ति हा सर्वे अवगच्छन्ति खलु तत्र भूतकालरूपम् अस् धातोः अस्ति स्तः सन्ति यदि यत् वदामः तस्य भूतकालरूपम् आसीत् आस्ताम् आसन् इति अस्ति हा तत्र एकवारं तस्य अभ्यासं
कण्डकः वल्लव ग्रन्थिका तन्तिपालः एतेषाम् अर्थः
नामः नकुलः नामः ग्रन्थिकः अस्तु न महोदय
तत्र बृहन्नल बृहन्नल केवलं नाम अस्ति तत्र
नाम
अत्र तेषां तेषां वृत्तिः अस्ति वा कण्डकः वल्लभः
नास्ति
नाम अस्ति
केवलं नाम अस्ति
विराटपर्वे अस्ति
कङ्कः अस्ति वा
कङ्कः एव इति
कङ्कवट्टु विराटपर्वे अस्ति महोदय विराटराज्ये
केवलं नाम केवलं नाम अस्ति अस्तु तत्र
अज्ञातवासे महोदय इत्युक्ते
अज्ञातवासे अज्ञातवासे तत्र अन्तिमवर्षे
अस्तु अस्तु कथा अहम् अवगच्छामि किन्तु इति पदम् अज्ञातवासे वासे च वसति
न न एतत् वसनं नास्ति खलु वसति नास्ति खलु वासः अज्ञातवासः अज्ञातवासे इति मन्ये
वस् धातुः अज्ञातवासे इत्युक्ते ज्ञानं नास्ति चेत् अज्ञातवासे
समासः अस्ति अज्ञातवासः इति
हा किन्तु भगिनि तत् विषयान्तरम् अस्ति तत्र हा तत्र अस् धातोः विषयः
अस्तु
तत्र हा निमिषद्वयमेव अस्ति तत्र एकवारम् एतत् कुर्मः तत्र आसीत् आस् हा तत्र आसीत् आस्थाम् आसन् इति तत्र साधारण सामान्य अभ्यासः अस्तु तत्र मधुसूदन महोदय भूतकालरूपं तत्र दृष्ट्वा सः सः तौ ते इति उपयुज्य सः आसीत् तौ इति तादृशरूपं वदतु महोदय एकवारं
आं महोदय सः आसीत् तौ आस्ताम् ते आसन्
त्वम्
असि त्वम् आसीः युवाम् आस्तं यूयम् आस्ता अहम् आसम् आवाम् आस्म वयम् आस्म
आवाम् आस्व वयम् आस्म समीचीनं महोदय अस्तु हा अस्तु तत्र उषा भगिनी एषा इति उपयुज्य
आसीत् एते आस्ताम् एताः आसन् त्वम् आसीः युवाम् आस्तं यूयम् आस्
हा इति अस्ति समीचीनं हा अस्तु तत्र अग्रिमपुटे तदेव पुनः अभ्यासः अस्ति तत्र हा तत् अग्रिमवर्गे कुर्मः किन्तु तत्र आसीत् आस्ताम् आसन् इति भूतकालरूपम् अस्ति अस्ति स्तः सन्ति इति क्रियापदस्य अपि अस्मिन् अध्याये किं भवति तत्र भूतकालस्य रूपद्वयम् अत्र दत्तमस्ति एकमस्ति गतवान् इति रूपम् अन्यत् रूपम् अस्ति अगच्छत् इति रूपं तत्र द्वयमपि पश्यामः एकं क्रियापदमस्ति अन्यत् विशेषणम् अस्ति तद् द्वयमपि अग्रिमवर्गे पश्यामः अस्तु अन्यः प्रश्नः अस्ति वा अस्तु अस्तु सर्वेभ्यो नमस्कारः धन्यवादः अग्रिमवर्गे
मिलामः
धन्यवादः नमस्कारः